गुरवे सर्वलोकानां भिषये भवरोगिणां निधये सर्वविद्यानां श्रीगुरुदक्षिणामूर्तये नमः श्रीपादरजं शरणं प्रपद्ये यतो नितः दिवेदः सनः पर्षदति दुर्गाणि विश्वानावेव सिन्धुं दुरिताद्यग्निः ताम् अग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् दुर्गां देवी गुं शरणमहं प्रपद्ये सुतरसि तरसे नमः अग्ने त्वं पारयानव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा भूश्च पृथ्वी बहुला न उर्वी भवा शोकायतनयाय शय्योः विश्वानि नो दुर्गः जातवेदः सिन्धुन्ननावा दुरितातिपर्षि अग्ने अत्रिवन्मनसा घनानोऽस्माकं भोद्य वितातनूनाम् पृतनाजितपुंसह मानमुग्रमग्निगुंहुवेम परमात्तदस्तात् सनः पर्षदति दुर्गाणि विश्वाक्षामदेवो अतिदुरिताद्यग्निः प्रत्नोषिकमेट्यो अध्वरेषु सनाच्च होतानव्यश्च सत्सि स्वाञ्चाग्ने तनुवं विप्रय स्वास्मभ्यं च सौभगमाय च स्वा भूविर्जोष्ठमयुजो निषिक्तं तवेन्द्रविष्णोरनुसञ्चरेम नाकस्य पृष्ठमपि संवसानो वैष्णवीं लोक इह मादयन्ताम् ॐ कात्यायनाय विद्महे कन्याकुमारि धीमहि तन्नो दुर्गिः प्रचोदयात्